इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। वक्फ संशोधन विधेयकं 24,000,000 आलक्ष्य अद्य लोकसभायां संयुक्त समित्याः प्रतिवेदनं प्रस्तोष्यते। वक्फ संशोधन विधेयके एतस्मिन् संयुक्त संसदीय समित्याः अध्यक्षः जगदम्बिका पालः भाजपेति दल सांसदेन संजय जायसवालेन सह वक्फ संशोधन विधेयके संयुक्त समित्याः प्रतिवेदनं प्रस्तोष्यति। असौ संयुक्त समित्याः समक्षे प्रदत्तानां साक्ष्यानां लेखान्यपि पटले स्थापयिष्यति। प्रतिवेदनमिदं गतमासस्य 30 दिनांके लोकसभायाः अध्यक्षाय ओम बिरला इत्येतस्मै समर्पितम्। वक्व संशोधन विधेयके समित्या बुधवासरे 29 दिनांके प्रारूप प्रतिवेदनं संशोधितं च विधेयकम् अंगीकृतम्। परञ्च विपक्षदलीयाः नेतारः प्रतिवेदने स्वीय असहमतिं प्रकटितवन्तः। संयुक्त संसदीय समित्या पूर्वे 95-99 वर्षं वक्फ विधेयकं 14 खण्डेषु धारासु अथ च 25 संशोधनैः सह स्वीकृतिः प्रदत्ता आसीत्। तत्रैव संसदः अर्थसंकल्पनासत्रम् अप्रैलमासस्य 4 दिनांकं यावत् प्रचलिष्यति। दिल्ली विधानसभा निर्वाचन प्रचारस्य अद्य अन्तिमं दिनं वर्तते। भाजपा आप कांग्रेस इत्येतेषां दलानां प्रमुख नेतारः मतदातॄन् आक्रष्टुं नैकाः जनसभाः कुर्वन्ति। निर्वाचन समराङ्गणे आहत्य 990,000 संख्यकाः प्रत्याशिनः स्पर्धमानाः वर्तन्ते। 70-सदस्यात्मिकीयायै दिल्ली विधानसभायै निर्वाचनं बुधवासरे भविष्यति। तत्रैव मतगणना च शनिवासरे भविष्यति। दिल्ल्यां भाजपा आम आदमी पार्टी कांग्रेस इत्येतेषां दलानां मध्ये त्रिकोणात्मिकी प्रतिस्पर्धा जायमाना वर्तते। राष्ट्रिय राजधान्यां 60+7,13,000 यावत् मतदान केन्द्रेषु मतदानं सुनिश्चितं वर्तते। अत्रावसरे निर्वाचनायोगोऽपि मतदातॄणां सहभागित्वं सुनिश्चितुं विभिन्नान् मतदातृ अनुकूलोपायान् सम्पादयन्तीति। उत्तरप्रदेशे प्रयागराजे वसन्तपञ्चम्याः शुभावसरे महाकुम्भस्य तृतीयम् अमृतस्नानं प्रचलति। अमृतस्नानं महाकुम्भस्य एकं विशिष्टं पुण्ययुतं पवित्रानुष्ठानं भारतीय सनातनधर्मे विद्यते। प्रथमं अमृतस्नानं मकरसंक्रान्तौ, अपरत्र द्वितीयं अमृतस्नानं मौनी अमावस्यायां 29 दिनांके परिपालितम्। 13 अखाड़ासमूहेषु प्रत्येकं अखाड़ासमूहः निर्धारितसमयस्य क्रमस्य च सूचनां प्रदत्तवन्तः। महानिर्वाणी पञ्चायती अखाड़ासमूहः, शम्भुपञ्चायती अटल अखाड़ासमूहः च अद्य प्रातः काले त्रिवेण्यां संगमे पवित्रावगाहनं कृतवन्तौ। सुरक्षां सुनिश्चेतुम् अर्धसैन्यबलानि समेत्य 50,000 यावच्च आरक्षिकर्मिणः मेलकक्षेत्रे नियुक्ताः सन्ति। प्रशासनेन गहन सागरीय क्षेत्रस्य अन्वेषणक्रमे प्रौद्योगिकीं विकसयितुम् अस्य वर्षस्य अर्थसंकल्पनापत्रे समुद्रयान अभियानाय 60,000,000,000 रूप्यकाणि आवंटितानि। अपरत्र वित्तमन्त्रिणा ऋत्वाधारित पूर्वानुमानानां क्षमतां संवर्धयितुं पृथ्वी विज्ञान मन्त्रालयस्य पदक्षेपाय मिशन मौसम इत्येतस्मै 29,300,000,000 रूप्यकाणि आवंटितानि। पुरुषाणां 20-प्रति20 क्रिकेट प्रतिस्पर्धायां भारतेन गतरात्रौ मुम्बय्याः वानखेडे क्रिकेट क्रीडांगणे श्रृंखलायाः 5मे अन्तिमे च द्वन्द्वे इंग्लैंड दलं 50,100 धावनांकैः पराजितम्। एतेन साकमेव भारतीय दलं 4-1 इत्यंकान्तरालेन प्रतिस्पर्धां विजितवत् इति वार्ताः।